नमस्सर्वेभ्यः. अद्य छन्दोवर्गे षोडशः पाठः शिखरिणीवृत्तम्. अद्य शिखरिणीवृत्तस्य लक्षणं तस्य उदाहरणानि च पश्यामः. रसैरुद्रैश्चिन्ना यमनसभलागशिखरिणी इति शिखरिण्याः लक्षणं. रसैरुद्रैश्चिन्ना यमनसभलागशिखरिणी इति अत्र प्रस्तारं पश्यामः. र लघुः, सै गुरुः, रु ह्रस्वः किन्तु अग्रे द्रै इति संयोगः अस्ति अतः गुरुः, द्रै इति गुरुः, छि अग्रे संयोगः अस्ति अतः अयमपि गुरुः, ना इति गुरुः, य म न स भ पञ्च लघ्वक्षराणि. आदौ लघुः, पञ्च गुरवः, पुनः पञ्च लघवः. ला गुरुः, गः गुरुः, शि ख रि इति लघुत्रयम्, अन्ते गुरुः. अयं प्रस्तारः. गणविभागं कुर्मः चेत् पञ्चगणाः सन्ति, अन्ते अक्षरद्वयम्, अतः पञ्चदश द्वयं सप्तदश अक्षराणि पादे सन्ति. के गणाः? आदि लघुः, आदिमध्यावसानेषु य र तायान्ति लाघवं, यगणः. सर्वगुरुः मगणः, सर्वलघुः नगणः. अन्त्यगुरुः भजसा यान्ति गौरवं, सगणः. आदिगुरुः भगणः. अनन्तरं लघुः गुरुः. य म न स भ, य म न स भ लाः यमनसभलाः. यमनसभगणाः लघुः, यमनसभलाः. गः गुरुः. शिखरिणी इति शिखरिण्याः गणविभागः. तर्हि एतत् किं? रसैरुद्रैश्चिन्ना, छिन्ना विभक्ता. यतिः उच्यते. रसाः रुद्राः इति पदद्वयम् उपयुज्यते. रसाः वस्तुतः शृङ्गारादयः नवरसाः प्रसिद्धाः, मधुरादयः षड्रसाः अपि प्रसिद्धाः. अत्र षड्रसाः एव अभिप्रेताः. मधुरम्, अम्लं, लवणं, कटु, कषायं, तिक्तम् इति षड्रसाः, स्वादाः भवन्ति. रसैः रुद्रैः, रुद्राः तु एकादश रुद्राः इति प्रसिद्धम्. रसैः रुद्रैः छिन्ना, अतः षष्ठ अक्षरानन्तरं, तदनन्तरम् एकादश अक्षरानन्तरं यतिः भवति शिखरिण्या. एकं, द्वे, त्रीणि, चत्वारि, पञ्च, षट्. रसैरुद्रैश्चिन्ना, ततः एकादश. सप्तदश सन्ति, आदौ षट् चेत् शिष्टाः एकादशवर्णाः, अतः पादस्य अन्ते. षष्ठाक्षरानन्तरं पादस्य अन्ते च यतिः भवति शिखरिणीवृत्ते. रसैरुद्रैश्चिन्ना यमनसभलागशिखरिणी. शिखरिणी अपि अत्यन्तं प्रसिद्धं वृत्तमस्ति. काव्येषु, स्तोत्रेषु सर्वत्र अस्याः उपयोगः दृश्यते. सौन्दर्यलहरी इति प्रसिद्धं स्तोत्रं श्रीमच्छङ्करभगवत्पादैः विरचितं शतश्लोकात्मकं स्तोत्रं. तत्र शतमपि श्लोकाः शिखरिणीवृत्ते निबद्धाः सन्ति. शिवशक्त्या युक्तो यदि भवति शक्तः प्रभवितुम्, न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि. अतस्त्वामाराध्यां हरिहर विरिञ्चादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति. शि लघुः, वः श अग्रे संयोगः, क्त्या यु अग्रे संयोगः, अतः गुरुः. क्तो यदि भवति शक्तः प्रभवितुम्. अत्र गणान् विभजामः. आदिलघुः यगणः, सर्वगुरुः मगणः, सर्वलघुः नगणः, अन्त्यगुरुः सगणः. सर्वलघुः नगणः, अन्त्यगुरुः सगणः, आदिगुरुः भगणः, लघुः गुरुः. यमनसभलाः गः, रसैरुद्रैश्चिन्ना यमनसभलागशिखरिणी. षष्ठाक्षरानन्तरं यतिः. शिवशक्त्या युक्तो रसैः यदि भवति शक्तः प्रभवितुम् रुद्रैः छिन्ना. न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि. अतस्त्वामाराध्याम् हरिहरविरिञ्चादिभिरपि. प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति इति शिखरिणी छन्दसि निबद्धः अयं श्लोकः. अग्रिमम् उदाहरणं भवभूतिः इति कश्चित् श्रेष्ठः कविः, तस्य उत्तररामचरितम् इति नाटकं बहु प्रसिद्धं. सः कविः भवभूतिः शिखरिणी छन्दसि बहून् उत्तमान् श्लोकान् रचितवान्. अतः तस्य नाम शिखरिणी छन्दसा एव योजितमस्ति. भवभूतेः शिखरिणी निरर्गलतरङ्गिणी, अत्यन्तं वेगेन प्रवहमाना नदी इव भवभूतेः शिखरिणीवृत्तं विलसति इति वर्णना अस्ति. अतः तस्य भवभूतेः अयं श्लोकः. पुरा यत्र स्रोतः पुलिनमधुना तत्र सरिताम् विपर्यासंयातो घनविरलभावः क्षितिरुहाम्. बहोर्दृष्टं कालादपरमिव मन्ये वनमिदम्. निवेशशैलानां तदिदमिति बुद्धिन्द्रढयति. रामः कथयति, सः पट्टाभिषेकानन्तरं बहूनां वर्षाणाम् अनन्तरं यदा पञ्चवटीम् आगच्छति तत्र सर्वं परिवर्तितमस्ति. पूर्वं यत्र नदी आसीत् तत्र इदानीं सिकता अस्ति, यत्र सिकताः तत्र नदी अस्ति. वृक्षाः अपि यत्र घनाः आसन् इदानीं विरलाः, यत्र विरलाः वृक्षाः इदानीं घनाः. अपरमिव मन्ये वनमिदम्, अन्यत् किमपि इव दृश्यते. किमर्थं? बहोः कालादपरं दृष्टं, किन्तु शैलानां निवेशः किं न परिवर्त्यते. शैलाः पर्वताः तु तत्रैव सन्ति, तेषां स्थलपरिवर्तनं न जातं, स्थितौ परिवर्तनं नाभूदित्यतः तदिदं तदेव वनम् इदम् इति बुद्धिं दृढयति इति कथयति. बहु उत्तमः श्लोकः अलङ्कारदृष्ट्या अपि. अत्र शिखरिणी छन्दः. पु लघुः, रायत्र स्रोतः पुलीनमधु ना तत्र सरिताम् इति प्रस्तारः. गणाः द्रष्टुं शक्यन्ते. यमनसभ, रसैरुद्रैश्चिन्ना यमनसभलागशिखरिणी इति शिखरिणी वृत्तम्. शिखरिण्यां प्रतिपादं सप्तदश अक्षराणि भवन्ति. यमनसभ गणाः, लघुः गुरुश्च भवति. षष्ठाक्षरानन्तरं पुनः द्वादश, क्षम्यताम्, एकादशाक्षरानन्तरं यतिः भवति. रसैरुद्रैश्चिन्नाय मनसफलागशिखरिणी इति शिखरिण्याः लक्षणं भवति। अभ्यासपत्रे दत्तेषु वाक्येषु प्रस्तारं विलिख्य अभ्यासं कुर्वन्तु।